अथ श्रीशंकर भगवत्पादाचार्यस्तवः मुदाकरेण पुस्तकं दधानमीशरूपिणं तथा परेण मुद्रिका नमत्तमो विनाशिनीं कुसुम्भवास सावृतं विभूतिभासि फालकं नताघनाशने रतं नमामि शंकरं गुरुं पराशरात्मज प्रियं पवित्रितक्षमातलं पुराणसारवेदिनं सनन्दनादिसेवितं प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं सुतादिमोहनाशकं सुशान्तिदान्तिदायकं समस्तवेदपारगं सहस्रसूर्यभासुरं समाहिताखिलेन्द्रियं सदा भजामि शंकरम् यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकं यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः नमाम्यहं सदा गुरुं तमेव शंकराभिधम् स्वबाल्य एव निर्भरय्यात्मनोदयालुताम् दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत्समाञ्जनान् स एव शङ्करः सदा जगद्गुरुर्गतिर्मम यदीय पुण्यजन्मना प्रसिद्धिमापकालटी यदीय शिष्यतां व्रजन् सतोटकोऽपि पप्रथे य एव सर्वदेहिनां विमुक्तिमार्गदर्शकः नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् सनातनस्य वर्त्मनः सदैव पालनायः चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् विभाण्डकात्मजाश्रमादि सुस्थलेषु पावनान् तमेव लोकशङ्करं नमामि शङ्करं गुरुम् यदीय हस्तवारिजात सुप्रतिष्ठिता सती प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे स्वभक्तपालनव्रता विराजते हि शारदा सशङ्करः कृपानिधिः करोतु मामनेन सम् इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकम् समादरेण यः पठेदनन्यभक्तिसंयुतः समाप्नुयात् समीहितं मनोरथं नरोचिरात् दयानिधे स शङ्करस्य सद्गुरोः प्रसादतः।